अष्टाध्याय्यां प्रथमाध्याये चतुर्थपादे कारकाधिकारः कारके ध्रुवमपाये पादानं भीत्रार्थानां भयहेतुः पराजयरसोढः वारणार्थानामीप्सितः अन्तर्धौ येनादर्शनमिच्छति आख्यातोपयोगे जनिकर्तुः प्रकृतिः भुवः प्रभवः कर्मणायमभिप्रैति ससम्प्रदानम् रुच्यर्थानाम् प्रीयमाणः श्लाघन्नु स्थाशपाम् ज्ञीप्स्यमानः धारेरुत्तमर्णः स्पृहेरीप्सितः क्रुधद्रुहेर्ष्यासूयार्थानाम् यम् प्रतिकोपः क्रुधद्रुहोरुपसृष्टयोः कर्म राधीक्ष्योर्यस्य विप्रश्नः प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता अनुप्रतिगृणश्च साधकतमङ्करणम् दिवः कर्म च परिक्रयणे सम्प्रदानमन्यतरस्याम् आधारोऽधिकरणम् अधिशींस्थासां कर्म अभिनिविशश्च उपान्वध्याङ्वसः कर्तुरीप्सिततमं कर्म तथा युक्तं चानीप्सितम् अकथितञ्च गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासणौ हृक्रोरन्यतरस्याम् स्वतन्त्रः कर्ता तत्प्रयोजको हेतुश्च